राम गीता जी का पाठ 11वां अध्याय श्लोक 45 से अध्याय समाप्ति तक। राम
वसुदेव सुसंदेव पंचजामोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् अदृष्टपूर्वम् ऋषितोऽस्मि दृष्ट्वा भयेन शक्तव्यथितम् मनो मे तदेव मे दर्शय देव रूपम् प्रसीद देवे सदयम् निवास कीर्तिनम् गदिनम् च गृहस्थ नेच्छामि त्वाम् द्रष्टुमहम् तथैव श्रीदेव रूपेण चतुर्भुजेन सहस्रबाहो भवेश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन त्वाद्गुणेवम् रूपम् परम् दर्शितमात्मयोगात् ते रूमयम् वेश्वनम् प्रमाद्यम् यन्ने कदाज्ञे मन दृष्टपूर्वम् न वेदयव्याध्ययने न दानै न च क्रियाभिर्न च बोधिरूपै एवम् रूप शक्यहम् विलोके द्रष्टुम् त्वदन्येन गुरु प्रयीय मातेभ्यधामात् विमूढभावो दृष्ट्वा रूपम् घोरमे दृङ्गमेदम् व्यपीतभीप्रीतमना पुनस्त्वम् तदेव मे रूपमिदम् प्रपश्य सञ्जय उवाच एत्यर्जुनम् वासुदेवस्तथोक्त्वा स्वकम् रूपम् दर्शयामास भूय आश्वासयामास प्रभीतमेनम् भूत्वा पुनः सोऽव्यवबोधनात्मावाच दृष्टेदौ मानुषम् रूपम् तव सोम्यम् जनार्दन इदानीमस्मि संवेत्त सचेता प्रकृतिम् गत श्रीभगवानुवाच सुदूर्दर्शनिदम् रूपम् दृष्टवानसि यन्मम देवाप्यस्य रूपस्य नित्यम् दर्शनकाङ्क्षिणाम् नाहं वेदैर्न तपसा न दानेन न चेत्यया शक्य एवं विधो द्रष्टुम् दृष्टवानसि माम् यथा भक्त्या त्वनन्यया शक्य अहमेवं विधो गुणम् ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परम् तप मत्कर्म कृन्मत् परमो मध्वस्य सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः समानेऽपि पाण्डव यः समानेऽपि पाण्डव ॐ सप्तश श्रीमद्भगवीपाशक्तिमुद्रयाङ्गे वसुदेव सुसंदेवम् पंचजामोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरे शरणं 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 हरे शरणं